एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः प्रतिनिधि सभायाः विकास प्रविधि समित्या एकीकृतोपयोगि राजमार्ग निर्माण सम्बद्ध विधेयकम् संसदः वर्तमाने अधिवेशने प्रस्तोतुम् नगरीय विकास मन्त्रालयाय निर्देशनम् प्रदत्तम् वर्तते। समितेः गतदिने सिंहप्रासादे उपविष्टेन उपवेशेन मार्गेषु विद्यमानाभिः तन्त्रिभिः विद्युतः स्तम्भैः अव्यवस्थितरूपेण स्थापिताभिः मलनिष्कासन पेयजलयोः नलिकाभिश्च नगरम् विरूपीकृतम् निर्माण व्ययश्च वर्धापितः इति निगद्य शीघ्रातिशीघ्रम् एकीकृतोपयोगि राजमार्ग निर्माण सम्बद्धम् विधेयकम् संसदः वर्तमाने अधिवेशने प्रस्तोतुम् नगरीय विकास मन्त्रालयो निर्दिष्टो वर्तते। उपवेशे संचार सूचना प्रविधि नगरीय विकास मन्त्री गोकुल प्रसाद बास्कोटा एकीकृतोपयोगि राजमार्गस्य आवश्यकता आराष्टम् वर्तते इति चर्चयन् अवदत् सम्बद्ध मन्त्रालयेन विधेयकस्य प्रारूपम् निर्मितमस्ति संसदः वर्तमाने अधिवेशने प्रस्तुत्यै कार्यम् विधीयमानम् च वर्तते। उपवेशे अर्थमन्त्री डाक्टर युवराज खतिवडा सार्वजनिक क्रयणाधिनियमे मार्ग निर्मात्रे मलव्यवस्थापनस्य च सम्पादनत्वेन विधि निर्मितोऽस्तीति अबोधयत्। भौतिक पूर्वाधार यातायात मन्त्री वसन्त कुमार नेवाङ आत्मना उपयोगि राजमार्गस्य पूर्ण क्रियान्वयनस्य पक्षे स्थितमिति ब्रुवन् एतद् विषयकम् विधिम् निर्माय बाध्यात्मकम् विधातुम् बलम् प्रादात्। उपवेशे पेयजल स्वच्छीकरण मन्त्री बीना मगर मार्ग निर्माणस्य कार्यस्य व्यवस्थिततायै मन्त्रालयानाम् एतद् अन्तर्गतानाम् निकायानाम् च मध्ये पारस्परिक समन्वय सहकार्ययोः आवश्यकताम् प्रदर्शितवती। प्रतिनिधि सभाया शिक्षा स्वास्थ्य समित्या क्रीडा सम्बद्धाम् व्यवस्थाम् विधातुम् निर्मितम् गतविक्रमाब्दीयम् विधेयकम् सर्वसम्मत्या पारिति कृतम् वर्तते। समितेः गतदिने सिंहप्रासादे उपविष्टेन उपवेशेन विधेयकम् ससंशोधनम् पारिति कृतम् अस्ति। उपवेशे युवक्रीडा मन्त्री जगद्बहादुर विश्वकर्मा क्रीडा सम्बद्धस्य विधेयकस्य पारितीकरणमनु नेपालस्य क्रीडा क्षेत्रे स्थितम् एकाधिकारम् समाप्स्यते इति विश्वासम् व्यक्तवान्। राष्ट्रिय सभायाः अध्यक्षस्य गणेश प्रसाद तिमलसिन्हाभिदस्य निमन्त्रणायम् क्यानडादेशस्य उपरितनसदनस्य सभामुखस्य जर्जे फ्यूरी इत्यस्य नेतृत्वे नेपाल भ्रमणे आगतेन प्रतिनिधिमण्डलेन गतदिने राष्ट्रिय सभायाः उपवेशः अवलोकितः। राष्ट्रिय सभायाः ह्यस्तनोपवेशस्य विशेष समये सांसदाः क्यानडादेशस्य उपरितनसदनस्य सभामुखस्य भ्रमणेन नेपाल क्यानडादेशयोः सम्बन्धः अतिरिक्त सबलः प्रगाढश्च भविष्यतीति विश्वासम् व्यक्तवन्तः। राष्ट्रियसभायाः अपरोपवेशः आगामिनः फाल्गुनमासस्य पञ्चमे दिवसे दिवा एकवादने वस्ता। तत्पूर्वम् राष्ट्रियसभायाः अध्यक्षस्य गणेशप्रसाद तिमलसिन्हाभिदस्य क्यानडादेशस्य उपरितनसदनस्य सभामुखस्य जर्जे फ्यूरी इत्यस्य च मध्ये संघीय संसद सचिवालय शिष्टाचार मेलवार्ता सम्पन्ना आसीत्। मेलनावसरे नेपाल क्यानडादेशयोर्मध्ये कूटनीतिक सम्बन्धस्य मित्रतायाः संसदीय सहकार्यस्य च विषयेषु विमृष्टमासीत्। तदवसरे अध्यक्ष तिमलसिन्हा सभामुखस्य उच्चस्तरीय भ्रमणेन नेपाल क्यानडादेशयोः सम्बन्धम् सहकार्यम् च सबलम् कारयितुम् सहयोगो मेलिष्यतीति विचारम् व्यक्तवान्। क्यानडादेशस्य उपरितन सदनस्य सभामुख फ्यूरी अगदत् नेपालस्य पर्यटन जल विद्युत वायुर्ज सौर्योजसाम् विकासेषु क्यानडादेशस्य पक्षतः सहयोगो भविष्यति। सर्वकारेण व्यापृत कोरोना जीवाणोः चीनदेशस्य हुबै प्रान्तात् स्वदेशम् प्रत्यावर्तितुकामानाम् नेपालीनाम् आनयनाय राष्ट्रिय ध्वजवाहकम् नेपाल वायुसेवा निगमस्य विमानम् चीनदेशे प्रेषयितुम् पूर्वकार्यम् विहितम् अस्ति। चीनदेशे कोरोना जीवाणूनाम् सम्भावित संकटाद् रक्षणाय स्वदेशम् प्रत्यावर्तितुकामानाम् नेपालीनाम् विमानस्य माध्यमेन आनयनस्य सम्बन्धे गत रविवासरे संस्कृति पर्यटन नागरिकोड्डयन मन्त्रालयस्य निगमस्य च पदाधिकारिणाम् मध्ये विमृष्टम् आसीत्। विमानस्य प्रेषणाय आसन्न दिनद्वयस्य उड्डयन व्यवस्थापनम् विधातव्यम् भवति हेतोः व्यवस्थापकीय कार्यम् प्रारब्धम् अस्तीति निगमेन ज्ञापितम् वर्तते। चीनदेशस्य हुबै प्रान्तस्य वुहान नगरात् अशीत्यधिक शतेन नेपालीभिः स्वदेश प्रत्यावर्तनाय तत्रत्य नेपाली दूतावासे निवेदनम् प्रदत्तम् वर्तते। चीनदेशात् आनेष्यमाणाः नेपालिनः स्वदेशे आनीय चतुर्दश दिनानि यावत् परीक्षणे स्थापयिष्यन्ते इत्युक्तम् अस्ति। चीनदेशात् उद्धृत्य नेपाले आनेष्यमाणानाम् अष्टोत्तर शतस्य नेपालीनाम् स्थापनार्थम् पृथक सुरक्षित परीक्षणस्थलस्य निर्माणस्य कार्याधीने भक्तपुरस्य खरीपाटी स्थिते नेपाल विद्युत प्राधिकरणस्य भवने संचारकर्मिणः प्रवेशाय निषिद्धाः सन्ति। चीनदेशे कोरोना जीवाणुभिः महामार्याः रूपग्रहणस्य अनन्तरम् तत्रत्यानाम् नेपालीनाम् सर्वकारेण स्वदेश प्रत्यावर्तनानन्तरम् खरीपाटी स्थिते प्राधिकरणे स्थापनार्थम् विहितम् पूर्वकार्यम् अनु समाचार संकलनाय खरीपाटी स्थाने प्राप्ताः संचारकर्मिणः गतदिवसतो मूलद्वारे एव प्रवेशाय अवरोधिताः आसन्। सर्वकारेण सघन वसति युते खरीपाटी स्थाने चीनदेशात् प्रत्यावर्तमानानाम् नेपालीनाम् संस्थापनाय विहितस्य पूर्वकार्यस्य पश्चात् स्थानीयवासिभिः चांगुनारायण नगरपालिकया तत्रत्यैः राजनीतिकदलैश्च कार्यमेतद् विरुध्य सततम् विकल्पस्य अन्वेषणम् अभियाचितम् वर्तते। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्डः भासते सामन्तवादम् समाप्य नेपालः साम्प्रतम् समाजवादम् प्रति उन्मुखो वर्तते। फाल्गुनन्दन लिङ्गदेन फिल्म प्राली संस्थया गतदिने काष्ठमण्डपे आयोजिते पुरस्कार वितरणस्य सम्मानस्य च कार्यक्रमे नेकपादलस्य अध्यक्ष प्रचण्डः संघीय लोकतान्त्रिक गणतन्त्रस्य स्थापनातः नेपालस्य सर्वेषु राजनीतिक परिवर्तनेषु नेपालस्य सर्वासाम् जातजातीनाम् भूगोलस्य च भूमिका महत्वपूर्णा वर्तते। गतदिने एव नुवाकोटस्य विदुनगरपालिकायाः सप्तमवडा क्षेत्रस्य तुप्चे स्थाने आयोजिते कार्यक्रमे अध्यक्ष प्रचण्डः अगदात् नेपालस्य विकासाय नेपाल चीन भारत देशानाम् मध्ये त्रिदेशीय सहकार्य रणनीतौ प्रवर्तनीयम् इति समाचारः।